एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः प्रधानमन्त्रिणा केपी शर्मा ओलिना उपप्रधानमन्त्रीभ्याम् अन्यैः मन्त्रिभिश्च सह वर्तमानार्थिक वर्षाभ्यन्तरे विधीयमानानाम् प्रमुख कार्याणाम् उपलब्धेश्च कृते पूर्वेद्युः कार्य सम्पादन संविदा विहितास्ति। हिमप्रसादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये आयोजितायाम् कार्य सम्पादन संविदायाम् हस्ताक्षराणि विधाय संविदायाः प्रतिलिपिनाम् आदान प्रदानम् विहितमस्ति। तदवसरे प्रधानमन्त्री ओली निर्दिष्टस्य लक्ष्यस्य प्राप्तये निर्धारितानि कार्याणि समन्वयपूर्वकम् रचनात्मकतया पूरयितुम् मन्त्रिणः निरदिशत। प्रधानमन्त्री ओली योजनया लक्ष्येण च सहितेषु कार्यक्रमेषु संलग्नो भूत्वा देशस्य जनतायाश्च हितम् सर्वोपरि संस्थाप्य उपलब्धिमूलकम् कार्यम् कर्तुमपि निरदिशत। प्रधानमन्त्री ओली पूर्वमन्त्रिणाम् अनुभवैः शिक्षाम् गृहीत्वा संविदायाम् न लिखितेषु परम् राष्ट्रहिताय आवश्यकेषु विषयेष्वपि कार्यम् विधातुम् निरदिशत। एवमेव प्रधानमन्त्रिणः सर्वकारस्य मुख्य सचिवेन सहापि कार्य सम्पादन संविदा सम्भूता वर्तते। प्रधानमन्त्री केपी शर्मा ओली सांविधानिक परिषदः उपवेशस्य पूर्व कार्याय सामयिक राजनीतिक विषयेषु च नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवाभिधेन नेकपा माओवादी केन्द्रस्य अध्यक्षेण पुष्पकमला दाहाल प्रचण्डेन च सह विमृष्टवान् अस्ति। बालुवाटार वर्तिनी प्रधानमन्त्री निवासे सम्भूते विमर्शने अद्य उपविश्यमानस्य परिषदा उपवेशस्य पूर्वकार्यस्य सामयिक विषयाणाम् च सन्दर्भे विमृष्टमिति प्रधानमन्त्रिणः सचिवालयेन ज्ञापितम् वर्तते। प्रधानमन्त्री केपी शर्मा ओली नेपाले विद्यमानेभ्यः राष्ट्रियान्तर्राष्ट्रियस्तरस्य नैज क्षेत्रेभ्यः निवेशनस्य कृते उचितम् वातावरणम् स्रष्टुम् सर्वकारः तत्परो वर्तते इति कथयति। भौतिक पूर्वाधार यातायात मन्त्रालयस्य नेपालोद्योग परिसंघस्य निवेशन समितेश्च संयुक्तायोजनायाम् ह्य काष्ठमण्डपे प्रारब्धस्य द्विदिवसीय नेपाल पूर्वाधार सम्मेलनस्य पञ्चमम् संस्करणम् सम्बोधयन् प्रधानमन्त्री ओली नैज क्षेत्रेण सह सहकार्यम् कृत्वा अग्रे वर्धितुम् सर्वकारः तत्परो वर्तते इति समस्पष्टयत्। प्रधानमन्त्री ओली मार्ग पूर्वाधार विकास वैद्युत प्रणाली प्रवृत्तिषु विकास कार्यक्रमेषु स्तरत्रयस्यैव सर्वकारेभ्य सर्वेभ्यो जनेभ्य च सहकार्यस्य अनुकूल सहयोगस्य च अपेक्षा स्थिति उदैरयत। सम्मेलने उपप्रधानार्थमन्त्री विष्णुप्रसाद पौडेलः पूर्वाधार विकासम् प्राथमिकतया सह अग्रे वर्धयितुम् संचित वित्तस्य व्ययवर्धनस्य नीतिः सर्वकारस्य स्थिति असूचयत। उपप्रधानमन्त्री पौडेलः पूर्वाधार विकासाय विनियोजित वित्तस्य आधार वर्धयिष्यते इति प्रतिबद्धताम् व्यक्तवान्। प्रधानमन्त्री केपी शर्मा ओली वैश्विक स्तरीय स्पर्धायां सक्षमां जनशक्तिं निर्मातुं राजर्षि जनक विश्वविद्यालयं निर्दिशति। बालुवाटार वर्तिनी प्रधानमन्त्री निवासे ह्य सम्पन्नाम् राजर्षि जनक विश्वविद्यालयस्य अष्टमीम् साधारण सभाम् सम्बोधयन् प्रधानमन्त्री ओली सक्षम जनशक्तेः निर्माणस्य क्रमे दृष्टानाम् समस्यानाम् समाधानाय संयुक्त प्रयासस्य आवश्यकता भवतीति बलम् अदात्। प्रधानमन्त्री ओली गौरवपूर्णेन इतिहासेन पृष्ठभूम्या च सम्पृक्तेन अनेन विश्वविद्यालयेन पाठ्यक्रमस्य निर्माणस्य क्रमे प्राच्यदर्शनैः सह नेपाली दर्शनस्य अत्रत्य वैभवस्य च विषयेष्वपि ध्यानम् दातुम् अन्वरुणात्। प्रधानमन्त्री केपी शर्मा ओली भाद्रमासस्य एकत्रिंशे दिवसे आगामि सोमवासरे संसदम् सम्बोधयिष्यति। राष्ट्रसंघीय महासभायाम् भागम् ग्रहीतुम् अमेरिकादेश गमनात् पूर्वम् प्रधानमन्त्री ओली प्रतिनिधिसभाया उपवेशे सम्बोधनम् विधातेति एमाले दलस्य मुख्य सचेतक पदीयो महेश बर्तौला असूचयत। प्रधानमन्त्री ओली आगामिनः आश्विन मासस्य चतुर्थे दिवसे अमेरिकादेशम् प्रस्थाता। प्रधानमन्त्रिणः भ्रमण कार्यक्रम पूर्वमेव स्वीकृतो वर्तते। महासभायां करिष्यमाणस्य सम्बोधनस्य विषयम् संसदम् बोधयितुम् प्रधानमन्त्रिणा ओलिना सम्बोधनम् विधास्यमानम् वर्तते। नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा अन्य राजनैतिक दलानाम दुर्बलीकरण नीतिम अवलम्ब्य वर्तमान सर्वकार न निर्मितो स्थिति स्पष्टीकरोति। सानेपा वर्तिनी दल केन्द्रीय कार्यालय ह्य आयोजिते उत्कृष्ट नगरपालिकानाम ग्रामपालिकानाम च सम्मान कार्यक्रमे सभापति देउवा विपुल दल द्वयस्य मेलनस्य पश्चात अन्येषाम दलानाम समाप्ते नीति कांग्रेस एमाले दलयोर नास्तीति अवोचत। सभापति देउवा स्वेन सर्वदायित्वेभ्य संन्यास ग्रहणस्य वेला आगतास्तीति भासमानः दलस्य देशस्य च चिन्ता अतः परं नूतन नेतृत्वेन विधेयेति प्रावोचत। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षं नेपालस्य कृते म्यान्मार देशस्य अस्ट्रेलिया देशस्य फ्रांस देशस्य च आवासीय राजदूताः जाम्बिया देशस्य राजदूतश्च पूर्वे द्यौ स्वपदीय प्रमाणपत्रं प्रस्तुतवन्तः। राष्ट्रपति भवने ह्य आयोजिते पृथक पृथक समारोहे नवनियुक्ताः राजदूताः स्वपदीय प्रमाणपत्रं प्रस्तुतवन्त इति राष्ट्रपतेः कार्यालयस्य प्रवक्त्रया शैलजा रेग्मी भट्टराई इत्यनया प्रकाशितायां विज्ञप्तौ ज्ञापितं वर्तते। संसदीय श्रवण समित्या विभिन्नानां देशानां कृते प्रस्तावितानां सप्तदश राजदूतानां संसदीय श्रवणं ह्यस्तनात् दिवसात् समाप्तमस्ति। समित्या प्रस्तावितानां राजदूतानां विषयेषु भाद्रमासस्य त्रिंशे दिवसे आयोक्ष्यमाणे उपवेशे निर्णेष्यते। समित्या ह्य स्पेन श्रीलंका संयुक्ताधिराज्य संयुक्त राज्य अमेरिका देशानां कृते प्रस्तावितानां राजदूतानां श्रवणं विहितमस्ति। तत्पूर्वं समित्या भारत चीन दक्षिण कोरिया इजरायल पाकिस्तान सऊदी अरबिया दक्षिण अफ्रीका जर्मनी रूस कतार डेनमार्क मलेशिया पोर्चुगल देशानां कृते प्रस्तावितानां राजदूतानां श्रवणं विहितमासीत्। संसदीय श्रवणस्य क्रमे प्रस्ताविताः राजदूताः स्वकीयं चिन्तनम् अवधारणाम् अनुभवं च प्रस्तुत्य नेपालस्य आत्मना प्राप्तदायित्वेन देशेन च सह स्थितं कूटनीतिक सम्बन्धं सुदृढं कर्तुं नागरिकाणां सम्बन्ध विस्तारं विधातुं कृषि प्रविधि निवेश पर्यटनादिषु क्षेत्रेषु विशेष भूमिकां निर्वोढुं च प्रयतिष्यते इति अभासन्त। पर्वोत्सवं लक्ष्यीकृत्य सौविध्यपूर्णाः आपणाः आगामिनः आश्विन मासस्य सप्तमात् दिवसात् छठपर्व यावत् सञ्चालयिष्यन्ते। उद्योग वाणिज्य पूर्ति मन्त्रालयेन नेपाल तैल निगमाय खाद्य व्यवस्था व्यापार संस्थानाय साल्ट ट्रेडिङ कर्पोरेशन नामाख्यायी संस्थायै दुग्ध विकास संस्थानाय च परिपत्रम् विधाय पर्वोत्सव लक्षितान् सौविध्यपूर्णान् आपणान् सञ्चालयितुम् अनुरुद्धं वर्तते। उपभोक्तृणां हितं विचार्य अत्यावश्यक खाद्योपभोग्य वस्तूनां सौविध्यपूर्ण मूल्येन पर्वोत्सवावधौ आपणाः सञ्चाल्यमानाः सन्तीति उद्योग वाणिज्यापूर्ति मन्त्रालयेन ज्ञापितं वर्तते। खाद्य व्यवस्था व्यापार संस्थानेन द्वाचत्वारिंशतः जनपदानाम् एकषष्ट्यां स्थानेषु सौविध्यपूर्ण मूल्यस्य आपणाः सञ्चालयिष्यमाणाः वर्तन्ते। राष्ट्रिय बाल दिवसस्य अवसरे रेडियो नेपालस्य नेपाल बाल संघटनस्य च संयुक्त योजनायाम् अद्य राष्ट्रिय बाल गीत प्रतियोगिता सम्पद्यमाना वर्तते। प्रतियोगिताया रेडियो नेपालेन अद्य प्रातः 11 वादनस्य समाचार प्रसारणस्य अनन्तरं नक्सालवर्तिनः नेपाल बाल संघटनस्य केन्द्रीय कार्यालयात् प्रत्यक्ष प्रसारणं करिष्यते। प्रतिनिधि सभाया राज्य व्यवस्था सुशासन समितौ भ्रष्टाचार निवारणाधिनियमस्य संशोधनाय निर्मितं विधेयकम् आधृत्य विमृष्टं वर्तते। उपवेशे गृहमन्त्री रमेश लेखक नैज क्षेत्रीय अधिकार दुरूपयोगानुसन्धानायोगेन अनुसन्धानं विधातव्यं नवेति विषये सांसदैः स्पष्टैर्भाव्यमिति अगदत्।